इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। नूतन केन्द्रीय मन्त्रिणां विभागाः आवंटिताः। केन्द्रीय मन्त्रिणं राजनाथसिंहं पुनः रक्षामन्त्रालयः प्रदत्तः। श्री अमितशाहः गृहमन्त्री तथा सहकारिता मन्त्री आस्ते। नितिनगडकरी पुनरैकवारं पथपरिवहनमन्त्री एवं राजमार्गमन्त्री जनिष्यति। जगत्प्रकाशनड्डा इत्यस्मै स्वास्थ्य एवं परिवार कल्याण मन्त्रालयः तथा रसायनम् एवं उर्वर मन्त्रालयः आवंटितः। शिवराज सिंह चौहानाय कृषि तथा ग्रामीण विकास मन्त्रालयस्य प्रभारः प्रदत्तः। निर्मला सीतारमणः इत्यस्यै वित्त मन्त्रालयः आवंटितः। डॉ सुब्रह्मण्यम जयशंकराय विदेश मन्त्रालयस्य प्रभारः प्रदत्तः। अश्विनी वैष्णवाय रेल मन्त्रालयस्य साकं सूचना एवं प्रसारण मन्त्रालयः आवंटितः। हरियाणा राज्यस्य पूर्व मुख्यमन्त्रिणे मनोहर लालाय आवास एवं नगर विकास मन्त्रालयस्य अथ ऊर्जा मन्त्रालयस्य च उत्तरदायित्वं प्रदत्तम्। किरेन रिजिजू संसद कार्य मन्त्री अन्नपूर्णा देवी च महिला विकास मन्त्री भविष्यतः। चिराग पासवानः इत्यस्मै खाद्य प्रसंस्करण मन्त्रालयं तत्रैव ज्योतिरादित्य सिंधिया संचार मन्त्रालयं पश्येत्। एचडी कुमारस्वामी भारयुक्त उद्योग मन्त्री भविता। बिहारस्य पूर्व मुख्यमन्त्री जीतन राम मांझी सूक्ष्म लघु मध्यम उद्यम मन्त्री भूयात्। सर्वानन्द सोनोवालः जहाजरानी मन्त्रालयः अथ ललन सिंहः पंचायती राज मन्त्रालयः निभालयिष्यति। प्रहलाद जोशिने उपभोक्त्री मन्त्रालयस्य उत्तरदायित्वं प्रदत्तम्। गिरिराज सिंहाय वस्त्र मन्त्रालयः भूपेन्द्र यादवाय पर्यावरण मन्त्रालयः हरदीप सिंह पुरी इत्यस्मै पेट्रोलियम मन्त्रालयः आवंटिताः। मनसुख मांडविया इत्यसौ नूतनः क्रीडामन्त्री भविता। डॉ एल मुरुगनः पुनः सूचना एवं प्रसारण मन्त्रालये राज्यमन्त्री भविष्यति। केन्द्रीय प्रशासनं प्रधानमन्त्री आवास योजनायाः अन्तर्गतं आवासस्य आवश्यकतां सम्पूर्तये गृहाणां निर्माणार्थं त्रिकोटितोप्यधिक ग्रामीण नगरीय गृहेभ्यः सहायतां प्रदास्यति। गतदिने नवदिल्ल्यां एनडीए प्रशासनस्य प्रथम मन्त्रिमण्डल उपवेशने निर्णयोऽयं स्वीकृतः। केन्द्रीय प्रशासनं पञ्चदशोत्तर द्विसहस्रतम वर्षतः एव प्रधानमन्त्री आवास योजनायाः कार्यान्वयनं कुर्वतस्ति। योजनायाः अन्तर्गतं विगत दश वर्षेषु निर्धन परिवारेभ्यः आहत्य एकविंशतिः लक्षाधिक चतुर्कोटिः गृहाणि प्रदत्तानि। योजनायाः अन्तर्गतं निर्मितानां गृहेषु शौचालयः एलपीजी इत्यस्य संयोजनं विद्युत संयोजनं गृहजलनलिका संयोजनं इत्यादयः सौविध्यम् अपि प्रदत्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् प्रशासनं सर्वदा जनानां कल्याणाय कार्यं करिष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना तृतीयवारं प्रधानमन्त्री पदभार ग्रहणानन्तरं एव गतदिने कृषक सम्मान निधेः सप्तदशतम भागराशिः हस्तान्तरितः। अनेन हस्तान्तरेण 30,00,000+9 कोटि कृषकेभ्यः 20,000 कोटि रूप्यकाणां लाभो भविष्यति। श्रीमता मोदिना उक्तं यत् तदीय प्रशासनस्य प्रथमो निर्णयः कृषक कल्याणं प्रति तदीयां प्रतिबद्धतां द्योतयति। स्टटगार्ट प्रतिस्पर्धायां टेनिस द्वन्द्वे अद्य जर्मनी देशे भारतस्य यूकी भाम्बरी इत्यस्य साकं ऑलवेटी अभियानं प्रारप्स्यति इति वार्ता।